एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। पाकिस्तान देशस्य काराकोरम हिमश्रृंखलायाम् अष्टौ सहस्राणि सप्तचत्वारिंशच्चेति मीटरमिते उपरि विद्यमानस्य ब्रोड पीके शिखरस्य आरोहणस्य क्रमे दूरापन्ने हिमस्खलने निपत्य विश्वकीर्तिमता नेपाली पर्वतारोहिणा निर्मल पूर्जा इत्यनेन सहिता षड् नेपालिनः मृताः वर्तन्ते चेत् समग्रतः दश पर्वतारोहिणो जना मृताः सन्ति। आरोहिणा पूर्जा इत्यस्य एलिटे एक्सपीडिशन नाम्न्या संस्थया सामाजिक सञ्जालस्य माध्यमेन पर्वतारोहिणा पूर्जा इत्यनेन सहिता सर्वे आरोहिणा मृताः सन्तीति ज्ञापितं वर्तते। हिमस्खलने पूर्जा इत्यनेन सह दश पर्वतारोहिणो जनाः विलुप्ताः आसन्। तेषु षण्णाम् नेपालीनाम् शवाः ह्यः प्राप्ताः, चतुर्णाम् जनानाम् शवाः परह्यः प्राप्ताः आसन्। पूर्जा इत्यनेन एकोनविंशत्यधिक द्विसहस्रतमे ख्रीष्टवर्षे अष्टसहस्रमीटरमितोच्च परिमाणानाम् चतुर्दशानाम् पर्वतशिखराणाम् षण् मासानाम् अवधौ सफलारोहणं कृत्वा विश्वकीर्तिः अधिगता आसीत्। दुर्घटनायां निर्मल पूर्जा, पूर्व बहादुर गुरुङ, निमा शेर्पा, किली पेम्बा शेर्पा, ग्यालु शेर्पा, नवाङ थिन्दु शेर्पा च नेपाली पर्वतारोहिणो जना मृताः सन्ति। वैदेशिक पर्वतारोहीषु पाकिस्तान देशस्य सोहेन साखी, चीन देशस्य वाङ झोङ, ओमान देशस्य नादिरा अहमद, अमेरिका देशस्य ग्यालोदी गेइन्च मृताः वर्तन्ते। अत्रान्तरे प्रधानमन्त्रिणा बालेन्द्र शाहेन बोडपिक दुर्घटनायां त्यक्त प्राणान् आरोहिणा प्रति श्रद्धाञ्जलिः व्यक्तोऽस्ति। फेसबुक सञ्जालस्य माध्यमेन श्रद्धाञ्जलिम् प्रकटयता प्रधानमन्त्रिणा बालेन्द्र शाहेन हिमालयानाम् आरोहणम् केवलम् शिखरस्पर्शनस्य अपेक्षयापि साहस त्यागानुशासन मानवीय सिम्नः प्रति अदम्यात्मविश्वास प्रदर्शनस्य सर्वोच्चाभिव्यक्तिः वर्तते इत्युक्तम् अस्ति। वक्तव्ये प्रधानमन्त्रिणा शाहेन शिखरारोहणस्य क्रमे षड्भिः नेपालीभिः सह चतुर्णाम् वैदेशिकारोहिणाम् दुःखदम् निधनम् प्रति स्तब्धताम् प्रदर्श्य शोकसन्तप्त परिवारजनेषु हार्दिक समवेदना च प्रकटिता वर्तते। सुनसरी प्रवृत्तिषु तराई मधेश क्षेत्रस्य जनपदेषु जनजीवनम् सामान्यम् जायमानम् वर्तते। जनजीवनस्य सामान्यावस्थायाम् प्राप्तेः अनन्तरम् पर्सा धनुषा सिराहा जनपदेषु क्रियान्विता कर्फ्यू नाम्नि पूर्णतः निषेधाज्ञा इदानीम् निरस्तीकृता अस्ति चेद् निषेधाज्ञा क्रियान्वयनस्यैव अवस्थायाम् अस्तीति सम्बद्ध जनपद प्रशासन कार्यालयैर्ज्ञापितम् वर्तते। सुनसरी जनपद प्रशासन कार्यालयेन पूर्ण निषेधाज्ञायाः निरसनम् विहितम् सदपि स्थानीय प्रशासनाधिनियमस्य अनुसारेण अपरसूचनायाः अप्रकाशनम् यावत् निर्धारित क्षेत्रेषु पञ्चभ्यः अधिकानाम् जनानाम् एकस्मिन्नेव स्थाने एकीभवनम् प्रदर्शनादि कर्म सभा उपवेशनादिकञ्च निषेधानि वर्तन्ते। गृहमन्त्रिणा सुदन गुरुङ इत्यनेन विभिन्न याचनाः प्रस्तुत्य आन्दोलनरतस्य हिन्दू सम्राट सेना समूहस्य प्रतिनिधिभिः सह धनुषा जनपदे वार्ता विहितास्ति। कतिपय दिवसेभ्यः सुनसरी प्रवृत्तिषु मधेश प्रदेशस्य जनपदेषु उत्पन्नायाः असहज परिस्थितेः समाधानाय मधेश प्रदेशे एव सम्प्रति विद्यमानेन गृहमन्त्रिणा गुरुङ इत्यनेन द्वादश सूत्रीय याचनाभिः सह आन्दोलनरतानाम् धार्मिक संस्थानाम् प्रतिनिधिभिश्च सह वार्ता विहिता वर्तते। गृहमन्त्रिणा सुदन गुरुङ इत्यनेन सिराहा जनपदस्य गोलबजारस्थाने गोलिकायाः प्रहारेण मृतस्य गणेश यादवस्य परिवारजनै सह अष्टसूत्रीय सहमति धृतास्तीति सूचितम् वर्तते। लहानवर्तिन्यः जनपद सुरक्षा समितेः उपवेशस्य पश्चात् परह्य रात्रौ यादवस्य सिराहा जनपदस्य औरही ग्रामपालिकायाः तुलसीयायी वर्तिनी गृहे मृतकस्य पित्रा मात्रा परिवारजनैश्च सह विहिते विमर्शने अष्टसूत्रीय सहमतिः दत्तास्तीति गृहमन्त्रिणा सुदान गुरूङ इत्यनेन ज्ञापितं वर्तते। विमर्शने घटनायां मृतस्य गणेश यादवस्य परिवाराय 10 लक्षाणि सहयोगस्वरूपेण प्रदातुं, मृतकं यादवं हुतात्मजनम् उद्घोष्टुं, प्रक्रियां तत्कालमेव अग्रे वर्धयितुं, स्थानीय सर्वकारस्य समन्वयेन स्मृति उद्यानं निर्माय प्रतिमां स्थापयितुं च सहमति धृता वर्तते। लुम्बिनी प्रदेशस्य मुख्यमन्त्री चेतनारायण आचार्यः सामाजिक सद्भावं धार्मिक सहिष्णुतां पारस्परिकैकतां च संस्थाप्य उच्च संवेदनशीलतापूर्वकं दायित्वं निर्वोढुं सुरक्षा निकायान् निर्दिष्टवान् वर्तते। आन्तर विषय विधि मन्त्रालये ह्यौपविष्टे उपवेशे मुख्यमन्त्रिणा आचार्येण पश्चात्तन समये तराई मधेस क्षेत्रस्य कतिपय जनपदेषु घटितानां घटनानां द्विरावर्तनं रोद्धुं, शान्ति सुरक्षे संस्थापयितुं, पारस्परिक सहकार्यं समन्वयं च स्थापयितुं च बलं ददता सुरक्षा निकायैः अतिरिक्त सावधानतायाः अवलम्बनस्य आवश्यकता प्रदर्शितास्ति। नेपाली कांग्रेस दलस्य सभापति गगन कुमार थापा विपदा समये भावना एव पर्याप्तं न भवतीति भाषमाण शिल्पं सामर्थ्यं च विकसय्य सहयोगं कर्तुं दलपंक्तिम् आह्वयति। विपदा व्यवस्थापनाय पूर्वकार्येषु प्रतिकार्यकार्येषु च केन्द्रीभूय नेपाली कांग्रेस दलस्य नित्यानुसन्धान प्रशिक्षण प्रतिष्ठानेन ह्य आयोजिते प्रशिक्षण कार्यक्रमे सभापति थापा राजनीतिक नेतृत्वे करूणातः अन्य कश्चन गुणो न भवतीति विचारं प्रत्यपादयत्। कार्यक्रमे नेपाली कांग्रेस दलस्य उपसभापति प्रशिक्षण प्रतिष्ठानस्य प्रमुखश्च विश्वप्रकाश शर्मा विगतकाले दलेन विपदी निपदितानां जनानां उद्धार कर्तुं न सक्ता इति अवस्थायाः उदाहरणं प्रददत्। विपदी उद्धार प्रवृत्तिषु सामाजिक कार्येषु क्रियाशीलाः भवितुं कार्यकर्तृन् निरदिशत्। सुर्खेत पत्राचार निर्देशनालयेन ह्यस्तन दिवसात् नागरिकाणां प्रतिगृहं यानचालकानुमति पत्रस्य प्रापणस्य कार्यं प्रारब्धं वर्तते। सुर्खेत यातायात व्यवस्था कार्यालयेन रूकुम पश्चिम जनपदीय यातायात व्यवस्था सेवा केन्द्रेण जुम्ला जनपदेन च यानचालकानुमति पत्राणां जनतायाः प्रतिगृहं प्रापणस्य कार्यं प्रारब्धं वर्तते। भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रालयेन सहकारी वञ्चन सम्बद्धानां याचिका निवेदनानां शीघ्र प्रक्रियाता निरूपणं विधातुं, सहकारी वित्त वञ्चन निरूपकं न्यायपीठं संघटयितुं सर्वोच्च न्यायालयस्य प्रधान न्यायाधीशस्य डाक्टर मनोज कुमार शर्मण समक्षं प्रतिवेदनं प्रस्तुत्य अनुरुद्धं वर्तते। इति समाचाराः।